ओम नमो भगवते वासुदेवाय। अथ द्व्यशीतितमोऽध्यायः। श्रीशुक उवाच, अथैकदा द्वारवत्यां वसतो रामकृष्णयोः सूर्योपरागः सुमहानासीत् कल्पक्षये यथा। तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वतः समन्तपञ्चकं क्षेत्रं ययुश्रेयो विधित्सया। निक्षत्रियां महीं कुर्वन् रामः शस्त्रभृतां वरः नृपाणां रुधिरौघेण यत्र चक्रे महार्रदान्। ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा लोकस्य ग्राहयन्नीशो यथान्योघापनुत्तये। महत्यां तीर्थयात्रायां तत्रागन् भारतीः प्रजाः वृष्णयश्च तथा क्रूरवसुदेवाहुकादयः। ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः गदप्रद्युम्नसाम्पाद्याः सुचन्द्रशुकसारणैः। आस्ते निरुद्धो रक्षायां कृतवर्मा च यूथपः ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवैः गजैर्नदद्भिरभ्राभैर्नृभिर्विद्याधरद्युभिः। यरोचन्तमहातेजाः पथि काञ्चनमालिनः दिव्यस्रवस्त्रसन्नाहाः कलत्रैखेचरा इव। तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः ब्राह्मणेभ्यो ददुर्धेनोर्वासहस्रगृक्ममालिनीः। रामः हृदे सुविधिवत् पुनराप्लुत्य वृष्णयः ददु स्वर्णं द्विजाग्र्येभ्यः कृष्णेनो भक्तिरस्विति। स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु। तत्रागतांस्ते ददृशुः सुहृत्सम्बन्धिनो नृपान् मत्स्योऽशीनरकौसल्य विदर्भकुरुसृञ्जयान् काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान् अन्यांश्चैवात्मपक्षीयान् परांश्च शतसो नृप नन्दादीन् सुहृतो गोपान् गोपीश्चोत्कण्ठिताश्चिरम् अन्योन्यसन्दर्शनहर्षरं हसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्वचोरुद्धगिरो ययुर्मुदम् स्त्रियश्च संवीक्ष्य मिथोति सहृदस्मितामलापाङ्गदृशोभिरेभिरे स्तनैस्तनान् कुङ्कुमपङ्करूषितान् निहत्य दोर्भिः प्रणयाश्रुलोचनाः। ततोऽभिवाद्यते वृद्धान् यविष्ठैरभिवादिताः स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथामिथः। पृथा भ्रातॄन् स्वश्रीर्वीक्ष्य तत्पुत्रान् पितरावपि भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः। कुन्त्युवाच, आर्यभ्रातरहं मन्ये आत्मानमकृताशिषं यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः। सुहृतो ज्ञातयः पुत्रा भ्रातरः पितरावपि नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणं। वसुदेव उवाच, अम्बमास्मान् सूयेथा दैवक्रीडनकान् नरान् ईशस्य हि वशे लोकः कुरुते कार्यते थवा कंसप्रतापिता सर्वे वयं याता दिशं दिशम् एतर्येव पुनः स्थानं दैवेन साधिता स्वतः। श्रीशुक उवाच, वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपाः आसन्नच्युत सन्दर्श परमानन्दनिर्वृताः। भीष्मो द्रोणोऽम्बिका पुत्रो गान्धारी ससुता तथा सदारा पाण्डवा कुन्ती सृञ्जयो विदुरः कृपः। कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् पुरुजित् द्रुपदः शल्यो धृष्टकेतुः सकाशिराट् दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ युधामन्युः सशर्मा च ससुता बाहल्लिकादयः। राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः श्रीनिकेतं वपुः सौरेः शस्त्रीकं वीक्ष्य विस्मिताः। अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः प्रशसंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान्। अहो भोजपते यूयं जन्मभाजो नृणामिह यत्पश्यथा सकृत् कृष्णं दुर्दर्शमपि योगिनां यद्विश्रुतिः श्रुतिनुते तमलं पुनाति पादावने जनपयश्च वचश्च शास्त्रम्। भूः कालभर्जितभगापि यदङ्घ्रिपद्म स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् तद्दर्शनस्पर्शनानुपथ प्रजल्प शय्यासनासनसयौनस पिण्डबन्धः येषाम् गृहे निरयवर्त्मनिवर्तताम् वः स्वर्गापवर्गविरमः स्वयमास विष्णुः। श्रीशुक उवाच नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् तत्रागमद्वृतो गोपैरनस्थार्थैर्दिदृक्षया तम् दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः परिषस्वजिरे गाढम् चिरदर्शनकातराः। वसुदेवः परिष्वज्य सम्प्रीतः प्रेम विह्वलः स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासम् च गोकुले कृष्णरामौ परिष्वज्य पितरावभिवाद्य च न किञ्चनो चतुः प्रेम्णा सासृकण्ठौ कुरुद्वः तावात्मासनमारोप्य बाहुभ्याम् परिरभ्य च यशोदा च महाभागा सुतौ विजहतुः शुचः। रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् स्मरन्त्यौ तत्कृताम् मैत्रीम् बाष्पकण्ठ्यौ समुचतुः का विस्मरेत वाम् मैत्रीमनिवृत्ताम् व्रजेश्वरी अवाप्याप्यैन्द्रमैश्वर्यम् यस्यानेह प्रतिक्रिया। एतावदृष्टपितरौ युवयोस्मपित्रो सम्प्रीणनाभ्युदयपोषणपालनानि प्राप्यो शतुर्भवति पक्ष्मः यद्वदक्षिणोर्न्यस्ताव कुत्र च भयौ न सताम् परः स्वः। श्रीशुक उवाच गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टम् यत्प्रेक्षणे दृशिषु पक्ष्मकृतम् शपन्ति दृग्भिर्हृदि कृतमलम् परिरभ्य सर्वात् तद्भावमापुरपि नित्ययुजाम् दुरापम् भगवान्स्तास्तथा भूता विविक्त उपसङ्गतः आश्लिष्यानामयम् पृष्ट्वा प्रहसन्नितमब्रवीत् अपि स्मरथन सख्यः स्वानामर्थचिकीर्षया गतांश्चिरायितान्शत्रुपक्षक्षपणचेतसः अप्यवध्या यथास्मान् स्विदकृतज्ञाविशङ्कया नूनम् भूतानि भगवान् युनक्ति वियुनक्ति च वायुर्यथा घनानीकम् तृणम् तूलम् रजांसि च संयोज्या क्षिपते भूयस्तथा भूतानि भूतकृत् मयि भक्तिर्हि भूतानामृतत्वाय कल्पते दृष्ट्या यदासीन् मत्स्नेहो भवतीनाम् मदापनः अहम् हि सर्वभूतानामादिरन्तोऽन्तरम् बहिः भौतिकानाम् यथा खम् वार्भूर्वायुर्ज्योतिरङ्गनाः एवम् ह्येतानि भूतानि भूतेष्वात्मात्मना ततः उभयम् मयि अथ परे पश्यता भातमक्षरे। श्रीशुक उवाच अध्यात्मशिक्षया गोप्य एवम् कृष्णेन शिक्षिताः तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन् आहुष्यते नलिननाभपदारविन्दम् योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः संसारकूपपतितोत्तरणावलम्बम् गेहञ्जुषामपि मनस्युदियात् सदा नः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे वृष्णिगोपसङ्गमो नाम द्व्यशीतितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।